वैदिका आरती। ॐ राजाधिराजाय प्रसह्यसाहिने नमो वयं वै ईश्रवणाय कुर्महे समे कामान् कामकामाय मह्यम् कामेश्वरो वै ईश्रवणो ददातु कुबेराय वै श्रवणाय महाराजाय नमः। ॐ न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः परेण नाकं निहितं गुहायां विभ्राजदेतत् यतयो विशन्ति वेदान्तविज्ञानसुनिश्चितार्थाः सन्न्यासयोगाद् यतयः शुद्धसत्त्वा आह ते ब्रह्मलोके तु परा आन्तकाले परामृतात् परिमुच्यन्ति सर्वे दह्रं विपापं परमे एष्मभूतं यत्पुण्डरीकं पुरमध्यसग्गस्थं तत्रापि दह्रं गगनं विशोकस्तस्मिन् यदन्तस्तदुपासितव्यम् यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः तस्य प्रकृतिलीनस्य यः परः स महेश्वरः न तत्र सूर्यो भाति न चन्द्रतारकम् नेमा विद्युतो भान्ति कुतोऽयमग्निः तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति। ॐ शान्ति शान्ति शान्तिः। हरिः ॐ श्रीगुरुभ्यो नमः। हरिः ॐ।